अथाष्टचत्वारिंशः सर्गः। ततस्तु रक्षोऽधिपतिर्महात्मा हनूमताक्षे निहते कुमारे मनः समाधाय सदेव कल्पम् समादिदेशेन्द्रजितम् सरोषः। त्वमस्त्रविच्छस्त्रभृताम् वरिष्ठः सुरासुराणामपि शोकदाता सुरेषु सेन्द्रेषु च दृष्टकर्मा पितामहाराधन सञ्चितास्त्रः। त्वदस्त्रबलमासाद्य ससुराः समरुद्गणाः न शेकुः समरे स्थातुम् सुरेश्वर समाश्रिताः। न कश्चित् त्रिषु लोकेषु संयोगेन गतश्रमः भुजवीर्याभिगुप्तश्च तपसा चाभिरक्षितः। देशकालप्रधानश्च त्वमेव मतिसत्तमः। न तेऽस्त्यशक्यम् समरेषु कर्मणाम् न तेऽस्त्यकार्यम् मतिपूर्वमन्त्रणे। न सोऽस्ति कश्चित् त्रिषु सङ्ग्रहेषु न वेदयस्त्रेऽस्त्रबलम् बलम् च ममानुरूपम् तपसो बलम् च ते पराक्रमश्चास्त्रबलम् च संयुगे। न त्वाम् समासाद्य रणावमर्दे मनःश्रमम् गच्छति निश्चितार्थम्। निहताः किङ्कराः सर्वे जम्बुमाली च राक्षसः अमात्यपुत्रा वीराश्च पञ्चसेनाग्रगामिनः। बलानि सुसमृद्धानि साश्वनागरथानि च सहोदरस्ते दयितः कुमारोक्षश्च सूदितः। न तु तेष्वेव मे सारो यस्त्वय्यरिनिषूदना। इदम् च दृष्ट्वा निहतम् महद्बलम् कपेः प्रभावम् च पराक्रमम् च। त्वमात्मनश्चापि निरीक्ष्य सारम् कुरुष्व वेगम् स्वबलानुरूपम्। बलावमर्दस्त्वयि सन्निकृष्टे यथा गते शाम्यतिशान्तशत्रौ तथा समीक्ष्यात्मबलम् परम् च समारभस्वास्त्रभृताम् वरिष्ठ। न वीरसेना गणशश्च्यवन्ति न वज्रमादाय विशालसारम्। न मारुतस्यास्ति गतिप्रमाणम् न चाग्निकल्पः करणेन हन्तुम्। तमेवमर्थम् प्रसमीक्ष्य सम्यक् स्वकर्म साम्याद्धि समाहितात्मा। स्मरंश्च दिव्यम् धनुषोऽस्य वीर्यम् व्रजाक्षतम् कर्म समारभस्व। न खल्वियम् मतिश्रेष्ठयत्वाम् सम्प्रेषयाम्यहम्। इयम् च राजधर्माणाम् क्षत्रस्य च मतिर्मता। नानाशस्त्रेषु सङ्ग्रामे वैशारद्यमरिन्दमा अवश्यमेव बोद्धव्यम् काम्यश्च विजयोरणे। ततः पितुस्तद्वचनम् निशम्य प्रदक्षिणम् दक्षसुतप्रभावः। चकारभर्तारमतित्वरेण रणाय वीरः प्रतिपन्नबुद्धिः। ततस्तैः स्वगणैरिष्टैरिन्द्रजित्प्रतिपूजितः। युद्धोद्धतकृतोत्साहः सङ्ग्रामम् सम्प्रपद्यत। श्रीमान् पद्मविशालाक्षो राक्षसाधिपतेः सुतः। निर्जगाममहातेजाः समुद्र इव पर्वणि। सपक्षिराजोपमतुल्यवेगैर्व्याघ्रैश्च दुर्भिः स तु तीक्ष्णदंष्ट्रैः। रथम् समायुक्तमसह्यवेगः समारुहोहेन्द्रजिदिन्द्रकल्पः। सरथीधन्विनाम् श्रेष्ठः शस्त्रज्ञोऽस्त्रविदाम्बरः। रथेनाभिययौ क्षिप्रम् हनूमान् यत्र सोऽभवत् स तस्य रथनिर्घोषम् ज्यास्वनम् कार्मुकस्य च। निशम्य हरिवीरोऽसौ सम्प्रहृष्टतरोऽभवत्। इन्द्रजिच्चापमादाय शितशल्यांश्च सायकान् हनूमन्तमभिप्रेत्य जगामरणपण्डितः। तस्मिंस्ततः संयतिजातहर्षेरणाय निर्गच्छति बाणपाणौ। दिशश्च सर्वाः कलुषा बभूवुर्मृगाश्च रौद्रा बहुधा विनेदुः। समागतास्तत्र तु नागयक्षा महर्षयश्चक्रचराश्च सिद्धाः। नभः समावृत्य च पक्षिसङ्घा विनेदुरुच्चैः परमप्रहृष्टाः। आयान्तम् सरथम् दृष्ट्वा तूर्णमिन्द्रध्वजम् कपिः। ननाद च महानादम् व्यवर्धत च वेगवान्। इन्द्रजित्सरथम् दिव्यमाश्रितश्चित्रकार्मुकः। धनुर्विस्फारयामास तटिदूर्जितनिःस्वनम्। ततः समेतावति तीक्ष्णवेगौ महाबलौ तौरणनिर्विशङ्कौ। कपिश्च रक्षोऽधिपतेस्तनूजःसुरासुरेन्द्राविव बद्धवैरौ स तस्य वीरस्य महारथस्य धनुष्मतः संयति सम्मतस्य शरप्रवेगम् व्यहनत्प्रवृद्धश्च चारमार्गे पितुरप्रमेयः ततः शरानायत तीक्ष्णशल्यान् सुपत्रिणः काञ्चन चित्रपुङ्खान् मुमोच वीरः परवीरहन्ता सुसन्ततान् वज्रसमानवेगान् ततः स तत्स्यन्दन निःस्वनम् च मृदङ्गभेरीपटः स्वनम् च विकृष्यमाणस्य च कार्मुकस्य निशम्य घोषम् पुनरुत्पपात शराणामन्तरेष्वाशु व्यावर्तत महाकपिः हरिस्तस्याभिलक्ष्यस्य मोक्षयन्लक्ष्यसङ्ग्रहम् शराणामग्रतस्तस्य पुनः समभिवर्तत प्रसार्य हस्तौ हनुमानुत्पपातानिलात्मजः तावुभौ वेगसम्पन्नौ रणकर्म विशारदौ सर्वभूतमनोग्राहि चक्रतुर्युद्धमुत्तमम् हनुमतो वेदन राक्षसोऽन्तरम् न मारुतिस्तस्य महात्मनोऽन्तरम् परस्परम् निर्विशहौ बभूवतः समेत्यतौ देवसमानविक्रमौ ततस्तु लक्ष्ये स विहन्यमाने शरेष्वमोघेषु च सम्पतत्सु जगामचिन्ताम् महतीम् महात्मा समाधिसंयोगसमाहितात्मा ततो मतिम् राक्षसराजसोऽनुश्चकार तस्मिन् हरिवीरमुख्ये अवध्यताम् तस्य कपेः समीक्ष्य कथम् निगच्छेदिति निग्रहार्थम् ततः पैतामहम् वीरः सोऽस्त्रमस्त्रविदाम्बरः सन्दधे सुमहातेजास्तम् हरिप्रवरम् प्रति अवध्योऽयमिति ज्ञात्वा तमस्त्रेणास्त्रतत्त्ववित् निजग्राहमहाबाहुम् मारुतात्मजमिन्द्रजित् तेन बद्धस्ततोऽस्त्रेण राक्षसेन स वानरः अभवन्निर्विचेष्टश्च पपात च महीतले ततोऽथ बुद्ध्वा स तदस्त्रबन्धम् प्रभोः प्रभावाद्विगताल्पवेगः पितामहानुग्रहमात्मनश्च विचिन्तयामास हरिप्रवीरः ततः स्वायम्भुवैर्मन्त्रैर्ब्रह्मास्त्रम् चाभिमन्त्रितम् हनूमांश्चिन्तयामास वरदानम् पितामहात् न मेऽस्य बन्धस्य च शक्तिरस्ति विमोक्षणे लोकगुरोः प्रभावात् इत्येवमेवम् विहितोऽस्त्रबन्धो मयात्मयोनेरनुवर्तितव्यः स वीर्यमस्त्रस्य कपिर्विचार्य पितामहानुग्रहमात्मनश्च विमोक्षशक्तिम् परिचिन्तयित्वा पितामहाज्ञामनुवर्तते स्म अस्त्रेणापि हि बद्धस्य भयम् मम न जायते पितामहमहेन्द्राभ्याम् रक्षितस्यानिलेन च ग्रहणे चापि रक्षोभिर्महन्मे गुणदर्शनम् राक्षसेन्द्रेण संवादस्तस्माद्गृह्णन्तु माम् परे स निश्चितार्थः परवीरहन्ता समीक्ष्यकारी विनिवृत्तचेष्टः परैः प्रसह्याभिगतैर्निगृह्य ननादतैस्तैः परिभर्त्स्यमानः ततस्ते राक्षसा दृष्ट्वा विनिश्चेष्टमरिन्दमम् बबन्धुश्शणवल्कैश्च द्रुमचीरैश्च संहतैः सरोचयामास परैश्च बन्धम् प्रसह्य वीरैरभिगर्हणम् च कौतूहलान्माम् यदि राक्षसेन्द्रो द्रष्टुम् व्यवस्येदिति निश्चितार्थः सबद्धस्तेन वल्केन विमुक्तोऽस्त्रेण वीर्यवान् अस्त्रबन्धस्य चान्यम् हि न बन्धमनुवर्तते अथेन्द्रजित्तम् द्रुमचीरबद्धम् विचार्य वीरः कपि सत्तमन्तम् विमुक्तमस्त्रेण जगामचिन्तामन्येन बद्धोऽप्यनुवर्ततेऽस्त्रम् अहो महत्कर्म कृतम् निरर्थम् न राक्षसैर्मन्त्रगतिर्विमृष्टा पुनश्च नास्त्रे विहतेऽस्त्रमन्यत्प्रवर्तते संशयिता स्म सर्वे अस्त्रेण हनुमान्मुक्तो नात्मानमवबुध्यते कृष्यमाणस्तु रक्षोभिस्तैश्च बन्धैर्निपीडितः हन्यमानस्ततः क्रूरैराक्षसैः कालमुष्टिभिः समीपम् राक्षसेन्द्रस्य प्राकृष्यत स वानरः अथेन्द्रचित्तम् प्रसमीक्ष्य मुक्तमस्त्रेण बद्धम् द्रुमचीरसूत्रैः यदर्शयत्तत्र महाबलम् तम् हरिप्रवीरम् स गणाय राज्ञे तम् मत्तमिव मातङ्गम् बद्धम् कपिवरोत्तमम् राक्षसाराक्षसेन्द्राय रावणायन्यवेदयन् कोऽयम् कस्य कुतो वापि किम् कार्यम् कोऽभ्युपाश्रयः इति राक्षसवीराणाम् दृष्ट्वा सञ्जज्ञिरे कथाः हन्यताम् दह्यताम् वापि भक्ष्यतामिति चापरे राक्षसास्तत्र सङ्क्रुद्धाः परस्परमथाब्रुवन् अतीत्यमार्गम् सहसा महात्मा स तत्र रक्षोऽधिपपादमूले ददर्श राज्ञः परिचारवृद्धान् गृहम् महारत्नविभूषितम् च स ददर्श महातेजा रावणः कपिसत्तमम् रक्षोभिर्विकृताकारैः कृष्यमाणमितस्ततः राक्षसाधिपतिम् चापि ददर्श कपिसत्तमः तेजो बलसमायुक्तम् तपन्तमिव भास्करम् सदोषसंवर्तितताम्रदृष्टिर्दशाननस्तम् कपिमन्ववेक्ष्य अथोपविष्टान् कुलशीलवृद्धान् समादिशत्तम् प्रति मुख्यमन्त्रीन् यथा क्रमन्तैः स कपिश्च पृष्टः कार्यार्थमर्थस्य च मूलमादौ निवेदयामास हरीश्वरस्य दूतः सकाशादहमागतोऽस्मि इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे अष्टचत्वारिंशः सर्गः।